एस रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचक उपेन्द्र दाहालः। प्रधानमन्त्रिणां बालेन्द्र शाहेन ह्य सुदूरपश्चिम प्रदेशात् प्रतिनिधित्वं कुर्वद्भिः प्रतिनिधिसभायाः सदस्यैः सह प्रदेशे विकास निर्माणस्य तत्र क्षेत्रीय दृष्टानां समस्यानां समाधानस्य च विषयेषु विमृष्टं वर्तते। प्रधानमन्त्री शाह सिंहप्रासादवर्तिनी प्रधानमन्त्री मन्त्रिपरिषद कार्यालये सांसदैः सह सुदूरपश्चिम प्रदेशस्य विकास निर्माणस्य कार्याणां विषये विमर्शनं विदधानः तत्दृष्टानां समस्यानां समाधानस्य विषये विमर्शनम् सम्भूतमस्तीति प्रधानमन्त्रिणः नैज सचिवालयेन ज्ञापितं वर्तते। प्रधानमन्त्री शाह सुदूरपश्चिम प्रदेशस्य विकास निर्माणस्य विषयेषु विमर्शनं कृत्वा तत्र दृष्टानां समस्यानां समाधानाय प्रयत्नो विधास्यते इति तदवसरे उक्तवान् इति डोटी जनपदस्य सांसद भरत खड्का असूचयत्। संघीय संसद सचिवालयेन संसदः अधिवेशनस्य आह्वानेन सहैव उपवेशस्य पूर्व कार्याय सर्वदलीयोपवेशः आहूतोऽस्ति। संसदि प्रतिनिधित्वं कुर्वद्भ्यः सर्वेभ्यो दलेभ्यः अद्य दिवा एकवादनाय सर्वदलीयोपवेशस्य कृते आमन्त्रणं प्रदत्तमस्तीति संसद सचिवालयस्य प्रवक्ता एकराम गिरी असूचयत्। राष्ट्रपतिना रामचन्द्र पौडेलेन मन्त्रिपरिषदः परामर्शेन स्व चैत्र मासस्य एकोनविंशे दिवसे दिवाद्विवादनाय संघीय संसदः द्वयोः सदनयोः अधिवेशनम् आहूतमस्ति। प्रतिनिधिसभायां राष्ट्रिय मान्यता प्राप्तानां षण्णां राजनीतिक दलानां सहभागिता वर्तते। गृहमन्त्रिणा सुदन गुरूङ इत्यनेन विपद व्यवस्थापनस्य पूर्व कार्येषु प्रवर्तितुं सशस्त्र प्रहरी बलं निर्दिष्टमस्ति। सशस्त्र प्रहरी बलस्य हलचोक वर्तिनी मुख्यालये ह्यो निरीक्षणस्य क्रमे मन्त्री गुरूङ विपद प्रारभणात् पूर्वमेव सम्पूर्ण पूर्व कार्याणि सम्पादयितुं निर्दिष्टवान्। तदवसरे गृहमन्त्री गुरूङ विपदा समये नागरिकेभ्य अभिभावकरूपेण सर्वकारस्य अनुभवनत्वेन कार्यं विधातुं निरदिशत्। गृहमन्त्री गुरूङ सीमक्षेत्रे जायमानानां चौर्य तास्कर्यादि कार्याणां नियन्त्रणाय मन्त्रालयेन कठोरो भूत्वा अग्रे वर्धनीयमिति चर्चयन् तथाविध कार्येण सशस्त्र प्रहरी कर्मचारिणां संलग्नतायां प्राप्तायां सत्यां कठोरेण दण्डयिष्यन्ते इति प्रत्यादिशत। तदवसरे सशस्त्र प्रहरी बलस्य महानिरीक्षक राजवरियालः प्रहरी नायब महानिरीक्षक विष्णुप्रसाद भट्टश्च विचारम् अभिव्यज्य सशस्त्र प्रहरी बल नेपालेन विधीयमानानां कार्याणां विषयं प्रत्यपादयताम्। अत्रान्तरे गृहमन्त्रिणा सुदन गुरूङ इत्यनेन सह सशस्त्र प्रहरिणः उच्चाधिकारिभिः विमृष्टमस्ति। तदवसरे गृहमन्त्री गुरूङ सशस्त्र प्रहरिणा विहितानां कार्याणां सुधाराय विधातव्यानां क्षेत्राणां विषयान् विमृष्टवान् इति गृहमन्त्रिणः नैज सचिवालयेन ज्ञापितमस्ति। राष्ट्रिय स्वतन्त्र दलस्य सभापतेः रवि लामिछाने इत्यस्य लोकतान्त्रिक समाजवादी दलस्य अध्यक्षस्य महन्त ठाकुर इत्यस्य च मध्ये ह्यो मेलवार्ता सम्भूतास्ति। मेलने सामयिक राजनीतिकावस्थायाः मधेस क्षेत्रस्य विकासस्य प्राथमिकतायाः प्रदानस्य योजनानां विषयेषु च विमृष्टमस्तीति रासपा दलस्य अध्यक्षस्य सचिवालयेन ज्ञापितं वर्तते। श्रमवृत्ति सामाजिक सुरक्षा मन्त्रालयेन वैदेशिक वृत्तिपार्जनाय विदेशं गन्तुकामानां श्रमिकाणां कृते सर्वकारीय मान्यतां प्राप्तवत्सु सर्वेषु चिकित्सालयेषु स्वास्थ्य परीक्षणस्य व्यवस्था विहिता अस्ति। मन्त्रिणः दीपक कुमार शाहस्य नेतृत्वे ह्य उपविष्टेन मन्त्रिस्तरीयोपवेशेन वैदेशिक वृत्तिपार्जनाय विदेशं गन्तुकामानां श्रमिकाणां कृते स्वास्थ्य परीक्षणस्य व्यवस्थार्थं स्वास्थ्य संस्थानां सूचीकरणाय सार्वजनिकम् आह्वानं कर्तुं द्वासप्तत्युत्तर द्विसहस्रतम विक्रमवर्षीय स्वास्थ्य संस्था सूचीकरण नवीकरणानुगमन कार्यविधेः तृतीय प्रकरणस्य व्यवस्थायाः अनुसारेण अन्यावश्यक प्रक्रियाम् अग्रे वर्धयितुं च निर्णीतं वर्तते। श्रमवृत्ति सामाजिक सुरक्षा मन्त्रालयस्य मापदण्डस्य अनुसारेण सम्प्रति 94,100 स्वास्थ्य संस्थाभिः नवीकरणं कृतं वर्तते। एताभ्यः स्वास्थ्य संस्थाभ्यः एव श्रमिकाणां स्वास्थ्य परीक्षणं जायमानम् आसीत्। नेपाली कांग्रेस दलेन सम्प्रति एव सम्पन्नस्य प्रतिनिधिसभा सदस्यानां निर्वाचनस्य समीक्षायाः दलस्य आगामी कार्यदिशायाः निर्धारणस्य च विषयेषु विमर्शनाय प्रतिनिधयः निर्धारिताः वर्तन्ते। केन्द्रीय कार्यसमितेः निर्णयस्य अनुसारेण विमर्शन कार्यक्रमस्य सञ्चालनाय प्रतिनिधयः निर्धारिताः सन्तीति महामन्त्रिणा प्रदीप पौडेलेन प्रकाशितायां विज्ञप्तौ उल्लिखितं वर्तते। काष्ठमण्डपस्य पूर्व प्रमुख जनपदाधिकारी छवि रिजालः न्यासवित्तं संस्थाप्य आवश्यकतायं सत्यम् अनिवार्यरूपेण उपस्थितेः शपथेन प्रहरी नियन्त्रणात् मुक्तोऽस्ति। जनपद सर्वकार्याधिवक्तुः परामर्शस्य पश्चात् आवश्यकतायं सत्याम् अनिवार्यतः उपस्थापनत्वेन कस्यचिद् दायित्वे रिजालः प्रहरी नियन्त्रणात् मुक्तोऽस्तीति काष्ठमण्डप प्रहरी परिसरस्य प्रवक्ता पवन कुमार भट्टराई असूचयत। गत भाद्रस्य त्रयोविंश चतुर्विंश दिवसयोः जेएनजीयूवान्दोलने दमनं कृतम् इत्यारोपे गौरीबहादुर कार्किणः नेतृत्वस्य अनुसन्धानायोगस्य परामर्शस्य आधारेण ह्यः प्रात एव रिजालः प्रहरिणा निगृहीतः आसीत्। राष्ट्रिय औषध प्रयोगशालया आईएसओ इति अन्तर्राष्ट्रिय प्रमाणीकरणस्य मान्यता प्राप्तास्ति। स्थापनायाः षष्टेः वर्षाणाम् अनन्तरं नेपालस्य औषधानां परीक्षणस्य सर्वकारीय प्रयोगशालया आईएसओ इति अन्तर्राष्ट्रिय मान्यता प्राप्तास्तीति राष्ट्रिय औषध प्रयोगशालायाः निर्देशक भरत भट्टराई असूचयत्। सार्वजनिक सेवा प्रसारण रेडियो नेपालस्य 67वां वार्षिकोत्सवस्य अवसरे रेडियो नेपालेन ह्य शास्त्रीय संगीत सम्मेलनम् आयोजितमस्ति। सम्मेलने विभिन्नै षड्भिः समूहै वरिष्ठ शास्त्रीय संगीतज्ञैश्च स्वस्व प्रस्तुतिः प्रस्तुता आसीत्। शास्त्रीय संगीत सम्मेलनस्य शुभारम्भं विदधानः सार्वजनिक सेवा प्रसारण नेपालस्य कार्यकारी अध्यक्ष डाक्टर महेन्द्र विष्ट रेडियो नेपालेन कला संस्कृत्योः प्रवर्धने सर्वदैव महत्वपूर्ण भूमिका निरूह्यमानास्तीति अवोचत। सम्मेलने सार्वजनिक सेवा प्रसारण नेपालस्य कार्यवाहक प्रमुख प्रशासकीयाधिकृतः विष्णु नेपाने कार्यक्रम महाशाखाया प्रमुख तारा प्रसाद ओस्ती च विचारं व्यक्तवन्तौ। नेकपा एमाले दलस्य अध्यक्ष केपी शर्मा ओली चिकित्सकानां निरीक्षणे विद्यमानोऽस्ति। स्वास्थ्य समस्याया दर्शनानन्तरं त्रिभुवन विश्वविद्यालयस्य महाराजगंजवर्तिनी शिक्षण चिकित्सालये प्रवेशितः ओली सम्प्रति चिकित्सकानां निरीक्षणे स्थिति चिकित्सालयस्य प्रवक्ता डाक्टर गोपाल सेढाई असूचयत। अत्रान्तरे नेकपा एमाले दलेन दलाध्यक्षस्य केपी शर्मा ओलिनः प्रहरी नियन्त्रणात् उन्मुक्तये अतिरिक्तान्दोलनस्य घोषणा विहितास्ति। ललितपुरस्य च्यासलवर्तिनी केन्द्रीय कार्यालये ह्य उपविष्टेन सचिवालयोपवेशेन एवं निर्णीतमस्तीति एमाले दलस्य महासचिव शंकर पोखरेलः असूचयत्। दार्चुला जनपदस्य ओसिलेस्थानात् गोकुलेश्वरस्थानं प्रति प्रस्थीयमानं जीपयानं शैल्यशिखर नगरपालिकायाः चतुर्थवडा क्षेत्रस्य ओसिलेक्षेत्रे दुर्घटितं सदा द्वौ सर्वकारीय कर्मकरौ घटनास्थले एव मृतौ स्तः। जनपद प्रहरी कार्यालयस्य अनुसारेण दुर्घटनायां जलस्रोत सेचन विकास मन्त्रालये कार्यरत स्थपति मनीषा चन्द वरिष्ठ प्रशासकीयाधिकृत भरतबहादुर तितरा च मृतौ इति प्रहरिणा ज्ञापितं वर्तते। दुर्घटनायां अन्य चत्वारो जनाः आहताः सन्ति।